रणोत्सुकेनान्धकशत्रुसूनुना समं प्रयुक्तैस्त्रिदशैर्जिगीषुणा महासुरं तारकसंज्ञकं द्विषं प्रसह्य हन्तुं समनह्य तद्रुतम्।
प्रणेति जेतुमिच्छति जिगीषति, जिगीषतीति जिगीषुः तेन जिगीषुणा। सन्नन्तात् जयतेः सनाशंसभिक्ष उः इत्युप्रत्ययः। अत एव रणे समरे, रणः कोणे क्वणे पुंसि समरे पुंनपुंसकम् इति मेदिनी। उत्सुकेन उत्कण्ठितेन अन्धकशत्रोः शिवस्य सूनुना कुमारेण कर्त्रा प्रयुक्तैः प्रेरितैः सन्नहनार्थमिति शेषः। त्रिदशैः देवैः इन्द्रादिभिः समं सार्धं तारकसंज्ञकं द्विषं शत्रुं महासुरं दैत्यं प्रसह्य बलात् हन्तुं मारयितुं द्रुतं शीघ्रं लघुक्षिप्रमरं द्रुतम् इत्यमरः। समनह्यत सन्नद्धम्, नह्यतेर्भावे लङ्। सर्गे अस्मिन्नपि वृत्तम् उपजातिरेव। इतः परं सह इत्यादिभिः त्रिभिः कुमारसन्नहनम् आह।
स दुर्निवारं मनसोऽतिवेगिनम् जयश्रियः सन्नयनम् सुदुःसहम् विजित्वरम् नाम तदा महारथम् धनुर्धरः शक्तिधरोऽध्यरोहयत्।
स इति स गुहः कार्तिकेयः धनुर्धरः तथा शक्तिधरश्च सन् दुर्निवारं दुःखेन निवारयितुं प्रतिरोद्धुं शक्यम्। अप्रतिरुद्धगतिकमित्यर्थः। मनसः सकाशात् अपि अतिवेगिनम् बहुगतिजववन्तमित्यर्थः। इह अतिनाम बहुश्चासौ जवश्च। स विद्यते यस्येति कृते न कर्मधारयान्मत्वर्थीयः इति निषेधप्रसक्त्या मत्वर्थीयः न स्यात्। अतः अतीत्यस्य क्रियाविशेषणताम् आश्रित्य समर्थनीयम्। केचित् पुनः मनसोऽपि इति पठित्वा व्याचक्षते। तथा जयश्रियः विजयलक्ष्म्याः सन्नयनम् सम्यक् प्राप्तिसाधनम्। यम् आरुह्य गच्छन्तः वीराः सजयलक्ष्मीकायैव भवन्तीति भावः। सुतराम् दुःसहम्, दुःसहता च एतद्दर्शनविषयिणी बोध्या। एतद्दर्शनेनैव शत्रवः पराजिताः भवन्ति। अतः युक्तमेव जयश्रीसन्नयनत्वम्। अत एव विजित्वरम्, विजित्वरेत्यानुपूर्विकम् नाम। नामत्वञ्च व्यक्तिबोधजनकतावच्छेदकसङ्केतत्वम्। दधानमिति शेषः। तथाभूतम् महारथम् महान्तम् स्यन्दनम्। रथः पुमानवयवे स्यन्दने वेतसेऽपि च इति मेदिनी। तदा अध्यरोहयत् आरुरोह।
सुरालयश्रीविपदाम् निवारणम् सुरारिसम्पत्परितापकारणम् केनापि दध्रेस्य विरोधिदारणम् सुचारु चामीकर घर्मवारणम्।
सुरालयेति विरोधिनम् तारकम् दारयति मारयति तत् विरोधिदारणम्। निजन्त प्रयोगम् कुर्वता कविना छत्रस्य जडत्वात् स्वातन्त्र्येण दारणक्रियोपयोगित्वा सम्भवात् तदीय धारणप्रभावेण वीरोह्यसौ कुमारः तारकम् जेष्यतीति सूचितम्। ओजसापि खलु नूनमनूनम् नासहायमुपयाति जयश्रीः इति न्यायादिति भावः। अत एव सुरालयस्य स्वर्गस्य श्रियः लक्ष्म्याः विपदाम् आपदाम् निवारणम् नाशकम्। अत एव सुरारेः तारकस्य सम्पदाम् परितापस्य सन्तापस्य कारणम् कर्तृ। सर्वत्र कर्तरि ल्युट्। सुचारु सुतराम् मनोहरम् चामीकरस्य हेम्नः घर्मवारणम् छत्रम्। अस्य कुमारस्योपरि केनापि देवेन दध्रे धृतम्। कर्मणि लिट्।
शरच्चरच्चन्द्रमरीचिपाण्डुरैः सवीज्यमानो वरचारुचामरैः पुरःसरैः किन्नरसिद्धचारणैः रणेच्छुरस्तूयत वाग्भिरुल्बणैः।
शरदिति शरदि घनात्यये चरतः भ्रमतः चन्द्रस्य मरीचयः मयूखाः तद्वत् पाण्डुरैः शुभ्रैः। शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डुराः इत्यमरः। चरत इति विशेषणम् चामराणामपि वीजनवशेन चलत्वात् अन्वर्थमिति बोध्यम्। तथाभूतैः वरैः श्रेष्ठैः वरो जामातरिवृतौ देवतादेरभीप्सिते शिङ्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंसकम् इति मेदिनी। चारुभिः मनोहरैश्च चामरैः वीज्यमानः तथा रणेच्छुः सङ्ग्रामाभिलाषुकः सः कुमारः उल्बणैः उद्भटैः किन्नराः किम्पुरुषाः स्यात्किन्नरः किम्पुरुषः इत्यमरः। सिद्धाः देवविशेषाः चारणाश्च तैः कर्तृभिः पुरःसरैः सद्भिः वाग्भिः कृत्वा अस्तूयत ईडितः। ष्टुस्तुतौ इत्यतः कर्मणि लङ्।
प्रयाणकालोचितचारुवेशभृत् वज्रम् वहन् पर्वतपक्षधारणम् ऐरावतम् स्फाटिकशैलसोदरम् ततोऽधिरुह्य द्युपतिस्तमन्वगात्।
प्रयाणेति ततः अनन्तरम् द्युपतिः इन्द्रः प्रयाणकाले प्रस्थानसमये उचितम् योग्यम् चारु मनोहरम् च वेषम् बिभर्ति धरति तथोक्तः। तथा पर्वतपक्षाणाम् दारणम् छेदनम् करणे ल्युट्। वज्रम् स्वायुधम् वहन् करेणेति शेषः। तथा स्फाटिकशैलः कैलासः तस्य सोदरम् सदृशम् ऐरावतम् गजम् अधिरुह्य आस्थाय तम् कुमारम् अन्वगात्। अनुययौ इत्यर्थः। अभ्यगात् इति पाठस्तु असाधुः। సేనానీత్వేన వృతత్వాత్ అతిశ్రేయః కుమారాపేక్షయా అన్యేషాం ఇంద్రాదీనామపి గౌణత్వాత్ పురతః గమనానౌచిత్యాత్.
తమన్వగచ్చద్ గిరిశృంగసోదరం మదోద్ధతం మేషమధిష్ఠితశిఖీ విరోధి విద్వేషరుషాధికం జ్వలన్ మహోమహీయస్తరమాయుధం దధత్.
తమితి విరోధినః తారకస్య విద్వేషేణ వైరేణ హేతునా యా రుట్ క్రోధః తయా నిమిత్తేన అధికం జ్వలన్ ప్రదీప్యమానః శిఖీ అగ్నిః గిరేః శృంగస్య సోదరం సదృశం తద్వద్విశాలమిత్యర్థః. తథా మదేన గర్వేణ మదో రేతసి కస్తూరియాం గర్వే హర్షేభదానయోః ఇతి మేదిని. ఉద్ధతం మేషం పశువిశేషం అధిష్ఠితః అధిరూఢః తథా మహసా తేజస మహీయస్తరం అతిశయం మహత్ ఆయుధం శస్త్రం దధత్. అథవా మహో మహీయస్తరం ఇతి ఛేదః. మహః తేజోరూపం మహీయస్తరం ఆయుధమితి వ్యాఖ్యాతవ్యం. దధత్ సన్ తం కుమారం అన్వగచ్చత్ అనుగతవాన్ అత్రాపి అభ్యగచ్చదితి అసాధు బోధ్యం.
అథేంద్ర నీలాచల చండ విగ్రహం విషాణ విధ్వస్త మహాపయోధరం అధిష్ఠితః కాసరముద్ధరం ముదా వైవస్వతో దండధరస్తమన్వగాత్.
అథేతి అథ అనంతరం వైవస్వతః యమః కాలో దండధరశ్రాద్ధదేవో వైవస్వతోంతకః ఇత్యమరః. ఇంద్రనీలానాం నీలమణీనాం అచలః పర్వతః తద్వత్ చండవిగ్రహం ప్రచండదేహం కాలత్వాత్ భయానకమిత్యర్థః. తథా విషాణాభ్యాం శృంగాభ్యాం విధ్వస్తాః అధఃపాతితాః మహాపయోధరాః బృహన్మేఘాః యేన తథా. ఉద్ధరం ఉద్భటం కాసరం మహిషం లులాయో మహిషో వాహద్విషత్ కాసరసైరిభాః ఇత్యమరః. అధిష్ఠితః అధిరూఢః తథా దండం ధరతీతి తథాభూతశ్చ సన్. ముదా ప్రీత్యా తం కుమారం అన్వగాత్ అనుజగామ.
మదోద్ధతం ప్రేతమథాధిరూఢవాన్ తమంధకద్వేషి తనూజమన్వగాత్. మహాసురద్వేష విశేషభీషణః సురోషణశ్చండరణాయనైర్తః.
మదోద్ధతమితి అథ అనంతరం మహాసురద్వేషేణ తారకాసురవైరేణ విశేషం అధికం యథా తథా. భీషణః భయానకః భీషణం రసశల్లక్యోః నాగాఢే దారుణేపి చ ఇతి మేదిని. తథా సుతరాం రోషణః క్రోధనః నైరుతః రాక్షసః నైరుతకోణాధీశ్వరః మదేన గర్వేణ ఉద్ధతం ప్రేతం పిశాచం అధిరూఢవాన్ ఆస్థితవాన్ సన్ చండరణాయ ప్రచండరణం కర్తుం తం అంధకద్వేషిణః హరస్య తనూజం పుత్రం కుమారం అన్వగాత్ అన్వియాయ.
నవోద్యదంభోధర ఘోరదర్శనే యుద్ధాయ రూఢో మకరే మహత్తరే దుర్వార పాశో వరుణో రణోల్బణః తమన్వియాయ త్రిపురాంతకాత్మజం.
నవేతి రణే యుద్ధే ఉల్బణః ఉద్భటః వరుణః ప్రచేతాః వరుణస్తరుభేదేప్సు పశ్చిమాశాపతావపి ఇతి మేదిని. నవః నవ్యః నవో నవ్యస్తుతౌ ఇతి మేదిని. ఉద్యన్ ఉదయమానః యః అంభోధరః మేఘః తద్వత్ ఘోరదర్శనే భయానకదర్శనే ఘోరం భీమం భయానకం ఇత్యమరః తథా మహత్తరే అతిశయదీర్ఘే మకరే నక్త్రే రూఢః తథా దుర్వారః పాశః ఆయుధవిశేషః యస్య పాశధరః సన్నిత్యర్థః యుద్ధాయ యుద్ధం కర్తుం తం త్రిపురాంతకస్య శివస్య ఆత్మజం పుత్రం కుమారం అన్వియాయ అన్వగచ్చత్.
దిగంబరాధిక్రమణోల్బణం క్షణాత్ మృగం మహీయాం సమరుద్ధ విక్రమం అధిష్ఠిత సంగరకేలి లాలసః మరున్మహేషాత్మజమన్వగాద్రుతం.
దిగితి సంగరకేలౌ సంగ్రామక్రీడాయాం లాలసా కామః యస్య లాలసౌత్సుక్య తృష్ణాతిరేకయాచ్ఛ్నాసు చ ద్వయోః ఇతి మేదిని. తథాభూతః మరుత్ పవనః వాయుకోణాధీశః క్షణాత్ ముహూర్తమాత్రేణైవ క్షణః పర్వోత్సవే చ స్యాత్ తథా మానేప్యనేహసి ఇతి మేదిని. దిశాం అంబరస్య చ అంబరం వాససి వ్యోమ్ని ఇతి మేదిని. అధిక్రమణే ఆక్రమణే ఉల్బణం ఉద్భటం మహీయాంసం మహత్తరం అరుద్ధః అప్రతిరుద్ధః విక్రమః వివత్ పక్షివత్ క్రమః పాదక్షేపః యస్య తథాభూతం మృగం హరిణం మృగః పశౌ కురంగే చ కరినక్షత్రభేదయోః ఇతి మేదిని. అధిష్ఠితః సన్ తం మహేషాత్మజం కుమారం ద్రుతం సత్వరం అన్వగాత్ అనుజగామ.
విరోధినాం శోణితపారణైషిణీం గదామనూనాం నరవాహనో వహన్ మహాహవాంభోధి విగాహనోద్ధతం ఇయాసుమన్వాగమదీశనందనం.
విరోధినామితి నరవాహనః కుబేరః పౌలస్యో నరవాహనః ఇత్యమరః. విరోధినాం శత్రూణాం సంబంధి శోణితం రుధిరం తేన యా పారణా భోజనం తాం ఇచ్ఛతి తథాభూతాం అనూనాం అన్యూనసారాం గదాం ஆயுத விசேஷம் வஹன் தாரயன் சன் மகாஹவஹ மகாரணஹ ச ஏவ அம்போதிஹி சமுத்ரஹ தஸ்ய விகாஹனே உத்தத்தம் உத்பட்டம் சமர்த்தமிதி யாவத். அத ஏவ யியாம்சும் ஜிகமிஷும் ஈசநந்தனம் சிவபுத்திரம் குமாரம் அன்வகமத் அனுகச்சதி ஸ்மேத்யர்த்தஹ.
மஹாஹி நிர்பத்த ஜடா கலாபினஹ ஜ்வல த்ரிஷூல பிரபலாயுதாயுதே ருத்ராஸ்துஷாராத்ரிசகம் மஹாவ்ருஷம் ததோதிரூடாஸ்தமயுஃ பினாகினஹ.
மஹாஹீதி ததஹ அனந்தரம் பினாகினஹ பினாகவந்தஹ ருத்ராஹ ஈசானகோணாதீஷாஹ மஹாஹிபிஹி மஹத்பிஹி சர்ப்பைஹி க்ருத்வா நிர்பத்தஹ யஹ ஜடாகலாபஹ சோஸ்தி ஏஷாம். அதவா மஹாஹிபிஹி நிர்பத்தா ஜடா ஏஷாம் சேஷாத் விபாஷா இதி கப் ததா ஆலாபினஹ இதானிம் தாரகம் ஜேஷ்யாமஹ இத்யுத்ததவாதினஸ்ச. ததஹ விசேஷண சமாசஹ கேசித்து ஜடாபராவராஹ இதி பாடம் கல்பயந்தி. யதாஸ்தித வியாக்யானே து ந கர்மதாரயான் மத்வர்த்தீயஹ இதி மத்வர்த்தீய பிரசங்கஹ துர்வார இத்யலம். ததா ஜ்வலத் தீப்யமானம் த்ரிசூலமேவ பிரபலம் சபலம் ஆயுதம் யேஷாம் ததா துஷாராத்ரேஹே ஹிமவதஹ சகம் சகாயம் தத்வத் சுப்ரமித்யர்த்தஹ. மஹாவ்ருஷம் ஜாதா வேகவச்சனம் அதிரூடாஶ்ச சந்தஹ யுதே யுத்தாய தம் குமாரம் அயுஹு அன்வயுரித்யர்த்தஹ.
அன்யேபி சன்னஹ்ய மஹாரணோத்ஸவ ஶ்ரத்தாலவஹ ஸ்வர்கிகணாஸ்தமன்வயுஹு ஸ்வவாஹனானி பிரபலான்யதிஷ்டிதாஹ பிரமோத விஸ்மேர முகாம்புஜஸ்ரியஹ.
அன்யேபீதி அன்யேபி உக்தாதிரிக்தா அபி ஸ்வர்கிகணாஹ தேவகணாஹ பிரமோதேன ரணானந்தேன விஸ்மேராஹ விசேஷேண சமந்தஹாசாஹ முகாம்புஜஸ்ரீஹி யேஷாம். அத ஏவ மஹதி ரணோத்ஸவே ஸ்ரத்தாலவஹ ஸ்ரத்தாசீலாஹ அத ஏவ பிரபலானி ஸ்வவாஹனானி அதிஷ்டிதாஹ ததா கவசாதினா சன்னஹ்ய சன்னத்தாஹ பூத்வா தம் குமாரம் அன்வயுஹு அனுஜக்முரித்யர்த்தஹ.
உத்தண்ட ஹேமத்வஜதண்ட சங்குலாஹ சஞ்சத் விசித்ராதப வாரணோஜ்வலாஹ சலத் கனஸ்யந்தன கோஷ பீஷணாஹ கரீந்திர கண்டாரவ சண்டசீத்கிருதாஹ ஸ்புரத் விசித்ராயுதகாந்தி மண்டலைஹி உத்யோதிதாஷாவலயாம்பராந்தராஹ திவௌகசாம் சோனுவஹன் மஹாசமூஹு பினாகபாணே ஸ்தனயஸ்த ततो ययौ
उद्दण्डेति स्फुरदिति च ततः सर्वसन्नहनानन्तरं सः पिनाकपाणेः हरस्य तनयः कार्तिकेयः उद्दण्डाः उच्चनालदण्डाः ये हेमध्वजाः सुवर्णविकारध्वजाः तेषां दण्डैः नालदण्डैः सङ्कुलाः व्याप्ताः अनेकध्वजदण्डवत्य इत्यर्थः चञ्चन्ति दीप्यमानानि तथा विचित्राणि हरितपीतादिवर्णयुक्तानि च यानि आतपवारणानि छत्राणि तैः उज्ज्वलाः कान्तिमत्य इत्यर्थः चलन्तः ये घनाः मेघाः त एव ये स्यन्दनाः रथाः तेषां घोषेण आरवेण भीषणाः भयानकाः तथा करीन्द्राणां मत्तद्विपानां सम्बन्धीनि घण्टारवाः चण्डानि भीषणानि चीत्कृतानि च यासु चीत्कृतेति शब्दानुकृतिः तथा स्फुरन्ति सर्वतः प्रसरन्ति विचित्राणि अनेकवर्णानि आयुधसम्बन्धिनीनां कान्तीनां द्युतीनां मण्डलानि वलयानि तैः कृत्वा उद्योतितम् उच्चैःशोभितम् आशावलयम् दिङ्मण्डलम् अम्बरान्तरम् आकाशमध्यम् च याभिः अम्बरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये छिद्रात्मीय विना बहिरवसरमध्येऽन्तरात्मनि च इति मेदिनी एवंविधा दिवौकसाम् देवानाम् महाचमूः महतीः सेना अनु पश्चात् वहन् सन् ययौ जगामेत्यर्थः
कोलाहलेनोच्चलताम् दिवौकसाम् महाचमूनाम् गुरुभिर्ध्वजव्रजैः घनैर्निरुच्छ्वासमभूदनन्तरम् दिङ्मण्डलम् व्योमतलम् महीतलम्
कोलाहलेनेति उत्प्लुत्य उड्डीय चलताम् रोषवशादिति भावः दिवौकसाम् देवानाम् कोलाहलेन घोरघोषेण तथा महाचमूनाम् गुरुभिः विशालैः घनैः सघनैः पुष्टैरिति यावत् ध्वजव्रजैः ध्वजसमूहैश्च कृत्वा निरुच्छ्वासम् निरुद्धश्वासम् निरोधहेतुकव्याप्तिमत् दिशाम् मण्डलम् व्योमतलम् महीतलम् अनन्तरम् अनुद्भासमानभेदम् अभूत् एकमेवाद्वितीयम् ब्रह्म इति अद्वैतवादिनाम् ब्रह्मणः अद्वैतत्वप्रतिपादने निदर्शनमभूदिति भावः
सुरारिलक्ष्मी परिकम्पहेतवः दिक्चक्रवालप्रतिनादमेदुराः नभोऽन्तकुक्षिम्भरयो घनास्वनाः निहन्यमानैः पटहैर्विते निरे
सुरारीति निहन्यमानैः ताड्यमानैः पटहैः कर्तृभिः पटहोना समारम्भे आनके पुन्नपुंसकम् इति मेदिनी आनकः पटहोस्त्री स्यात् इत्यमरश्च सुरारिलक्ष्म्याः तारकसम्पदः सम्बन्धिनि परिकम्पे హేతవః నిదానం. దిశాం చక్రవాలే మండలే, చక్రవాలంతు మండలం ఇత్యమరః. యః ప్రతినాదః ప్రతిధ్వనిః తేన మేదురాః పుష్టాః తథా నభోంతేన ఆకాశప్రాంతేన ప్రాంతపర్యంతేనేత్యర్థః. కుక్షిం భరంతి పిపురతి నభోంతకుక్షిం భరయః, సర్వం నభో వ్యాప్నువంత ఇత్యర్థః. ఫలే గ్రహిరాత్మం భరిశ్చ ఇత్యత్ర చాత్ కుక్షేరపి సమావేశాత్ కుక్షిం భరిరితి సిద్ధం. తయా ఘనాః సాంద్రాః స్వనాః శబ్దాః వితేనిరే వితస్తరిరే ఇత్యర్థః.